इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः कृष्णप्रसादोपाध्यायः। आदौ मुख्यवार्ताः। प्रधानमन्त्री नरेन्द्रमोदी फ्रांसदेशस्य राष्ट्रपतिना इमेनुएल मैक्रोन इत्यनेन सह नीस नगरे प्रतिनिधिमण्डलस्तरीयां वार्तां कृतवान्। अस्यां वार्तायां भारत फ्रांसयोः विशेष वैश्विक रणनीतिक सहभागितायाः अधिक सुदृढीकरणे बलं दत्तम्। रक्षा प्रविधि व्यापारादिषु क्षेत्रेषु सहकार्य विस्तारस्य विषये उभाभ्यां नेतृभ्यां विचार विमर्शः कृतः। फ्रांसदेशस्य राष्ट्रपतिः मैक्रों इत्येषः वैश्विक नवोन्मेष शक्तिरूपेण भारतस्य उदयस्य प्रशंसां कृतवान्। सः अवदत् यत् अद्य प्रश्नः नास्ति यत् भारतं नवोन्मेषं करोति न वा, अपितु प्रश्नः अयमस्ति यत् भारतेन सह नवोन्मेषकार्ये कः सहभागी अस्तीति। आयुष मन्त्रालयः अद्य यूट्यूब लाइव योग स्ट्रीम इत्यस्मै सर्वाधिक दर्शकाणां कृते नूतनां गिनीज बुक ऑफ वर्ल्ड रिकॉर्ड इति विश्व अभिलेखं निर्मितवान्। अपि च आईसीसी महिलानां T20 विश्वकप इति क्रीडायां भारतम् अद्य सायंकाले वर्मिंघम नगरे पाकिस्तानं विरुध्य स्वकीयाभियानम् आरप्स्यते। अथ वार्ताः विस्तरेण। प्रधानमन्त्री नरेन्द्रमोदी फ्रांसदेशस्य राष्ट्रपतिः इमेनुएल मैक्रों इत्येषः च अद्य नीसनगरस्य पॉलेस दे एक्सपोजिशन्स इत्यत्र भारत इनोवेट्स इति कार्यक्रमस्य संयुक्तरूपेण उद्घाटनम् अकुरुताम्। उभौ नेतारौ प्रतिनिधिमण्डलस्तरीयवार्ताञ्च कृतवन्तौ। भारत फ्रांस नवान्वेषण वर्षान्तर्गतम् आयोजितः अयं प्रमुखः कार्यक्रमः उभयोः देशयोः शीर्ष नवान्वेषण आरम्भान् वेंचर कैपिटल्स निधि इत्येतञ्च समाकलयति। कार्यक्रमेऽस्मिन् उन्नतगणनम् सेमीकंडक्टर्स कृत्रिमबुद्धिमत्ता क्वांटम प्रौद्योगिकी अंतरिक्ष प्रौद्योगिकी स्वच्छ ऊर्जा जैव प्रौद्योगिकी इत्यादिषु त्रयोदश प्रमुखेषु क्षेत्रेषु नवान्वेषणानि सन्ति। अस्मिन् अवसरे प्रधानमन्त्रिणा मोदीवर्येण भारत फ्रांस देशयोः सम्बन्धस्य बलविषये अवधानं दत्तम्। सः अवदत् यत् यद्यपि बहवः देशाः व्यापारे सामरिक सहयोगे च निमग्नाः सन्ति, तथापि केवलं कतिपयाः सम्बन्धाः एव समानदृष्ट्या समानहितैः च मार्गदर्शिताः भवन्ति। सः भारत फ्रांस सहभागित्वम् एतादृशम् एकं चिरस्थायि सम्बन्धम् अस्ति यस्य मूलाधारः परस्पर विश्वासः सहभागी मूल्यानि भविष्यत्कालाय सामान्यदृष्टिः च वर्णितवान्। सः अवदत् यत् नवान्वेषणं प्रौद्योगिकी भारतस्य यूनाम् आकांक्षाः देशस्य परिवर्तनस्य भविष्यनिर्माणस्य च चालकभूताः सन्तीति उक्तवान्।
दुनिया में अलग अलग देश एक दूसरे के साथ व्यापार करते हैं, अलग अलग देशों के बीच स्ट्रेटेजिक पार्टनरशिप भी होती है, लेकिन कुछ रिलेशंस ऐसे होते हैं जो शेयर्ड इंटरेस्ट के साथ साथ शेयर्ड विजन से भी ड्राइव होते हैं। भारत और फ्रांस का रिश्ता कुछ ऐसा ही है।
सभाम अभिसंबोधयन् फ्रांस देशस्य राष्ट्रपतिः मैक्रों वर्यः अवदत् वैश्विक नवोन्मेषण शक्तिरूपेण भारतस्य उदयस्य प्रशंसां सः कृतवान्। सः अवदत् यद् अद्य प्रश्नः नास्ति यद् भारतं नवोन्मेषं करोति वा न वेति, अपितु प्रश्नः अयमस्ति यद् भारतेन सह नवोन्मेषकार्ये कः सहभागी भविष्यतीति। अस्य वर्षस्य आरम्भे मुम्बईनगरे प्रारब्धस्य भारत फ्रांस नवान्वेषण वर्षस्य उल्लेखं कुर्वन् श्री मैक्रों वर्यः अवदत् यत् भारतस्य प्रमुखाणां नवोद्योग संस्थानां नवान्वेषकाणाञ्च प्रदर्शनार्थं निवेशकैः उद्यमपतिभिः सह सहयोगं प्रवर्धयितुं सहभागी देशत्वेन चितः इति फ्रांस देशः गौरवान्वितः अस्तीति। अस्मिन् अवसरे विदेशकार्यमन्त्री डॉ एस जयशंकरः, वाणिज्योद्योगमन्त्री पीयूष गोयलः, राष्ट्रिय सुरक्षा परामर्शकः अजीत डोभालः, प्रधान वैज्ञानिक परामर्शकः अजय कुमार सूदः, इन्फोसिस संस्थापकः नारायणमूर्तिः, अनेके व्यापार प्रमुखाः च उपस्थिताः आसन्। दिनानन्तरं प्रधानमन्त्री मोदी, राष्ट्रपतिः मैक्रों च भारत फ्रांस विशेष वैश्विक सामरिक सहभागित्वस्य प्रगतिं समीक्षितुं प्रमुख क्षेत्रीय वैश्विक विषयान् चर्चयितुञ्च द्विपाक्षिकं वार्तालापं करिष्यतः। आयुष मन्त्रालयेन अद्य नूतनः गिनीज बुक ऑफ वर्ल्ड रिकॉर्ड इति विश्व अभिलेखः निर्मितः। यूट्यूब लाइव स्ट्रीम अर्थात प्रत्यक्ष प्रसारित योग सत्रे सर्वाधिक दर्शकाणां सहभागितायै आयुष मन्त्रालयेन मोरारजी देसाई राष्ट्रीय योग संस्थानस्य हबविल्ड संस्थायाश्च सहयोगेन अद्य अन्ताराष्ट्रिय योग दिवसस्य 26 उत्तर 2000 वर्षस्य उत्सवानां भागरूपेण वैश्विकं ऑनलाइन आभासीयं योग सत्रम् आयोजितम्। अस्मिन् वैश्विक ऑनलाइन योग सत्रे आयुष मन्त्रालयः 35,000+ सत्यापित दर्शकाणां अभिलेखं स्थापितवान्। प्रियाः श्रोतारः, संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव कार्यक्रमोऽयम् आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर चलदूरभाषीयतन्त्रांशे अपि उपलब्धो भविष्यति। केन्द्रीय वित्तमन्त्री निर्मला सीतारमणः अद्य बेंगलुरुनगरे विकसित भारत संकल्प समावेशं सम्बोधयन्ती अवदत् यत् कर्नाटक राज्यं यूपीए शासनकालस्य अपेक्षया 5 गुणितम् अधिकं केन्द्रीय कर विभाजनम् अवाप्तवत्। वित्तमन्त्री अवदत् यत् कर विभाजनस्य माध्यमेन राज्याय 4,00,000 कोटि रूप्यकाणि प्राप्तानि। राष्ट्रिय राजमार्ग निर्माणाय, रेल संरचना विकासाय, बेंगलुरु चेन्नई औद्योगिक सम्पथ परियोजनायै, पुनर्नवीकरणाय, ऊर्जा परियोजनायै केन्द्रीय सहायता प्रदत्ता इति तया उक्तम्। केन्द्रीय श्रम आजीविका राज्यमन्त्री शोभा करन्दलाजे वर्या अवदत् यत् प्रधानमन्त्रिणा नरेन्द्र मोदिना विकसित भारतस्य लक्ष्यं प्रति देशः अग्रे सारितः। आन्ध्रप्रदेशस्य तिरुमला श्री वेंकटेश्वर मन्दिरे दर्शनानन्तरं सा अवदत् यत् एषा यात्रा प्रधानमन्त्रिणः नरेन्द्र मोदिनः 12-वर्षीय कार्यकाल पूर्णतायाः तथा च देशस्य दीर्घकालं निरन्तरं सेवमानस्य प्रधानमन्त्रिणः स्मरणार्थं कृतास्तीति। मध्यप्रदेशस्य मुख्यमंत्री मोहन यादवः अद्य सागरमण्डले राज्यस्तरीय कार्यक्रमे लाडली बहना इति योजनायाः 37 सहयोगांशस्य वितरणं कृतवान्। सम्पूर्णे राज्ये 15,00,000+ महिला लाभार्थीनां वित्तकोषेषु प्रत्यक्षतया 35,18,00,000+ रूप्यकाणि प्रेषितानि। केन्द्रीय स्वास्थ्यमंत्री जगत प्रकाश नड्डा विश्व रक्तदातृदिवसस्य अवसरे जनानां स्वैच्छिक रक्तदानाय आह्वानं कृतवान्। सामाजिक अन्तर्जाल माध्यमेन प्रसारिते सन्देशे तेन उक्तं यत् रक्तदानं कस्यचित् व्यक्तेः जीवनरक्षणस्य तथा नूतन जीवनप्रदानस्य सर्वाधिकं प्रभावी पावनञ्च माध्यमम् अस्ति। ओमानदेशे भारतीय दूतावासः अवदत् यत् प्रायः 14 भारतीयान् वहत् भारतीय ध्वजारोहितं यान्त्रिक नौकायानं विराट 1 इत्यस्मै ओमानदेशस्य तटे यन्त्रस्य विफलतायाः अनुभवः अभवदिति। सामाजिक प्रसारमाध्यमे दूतावासः सूचितवान् यत् सम्प्रति ओमान अधिकारिणां समन्वये समीपस्थैः नौकायानैः उद्धारकार्यं प्रचलतीति। अन्ते क्रीडावार्तासु, आस्ट्रेलियादेशः स्वस्य फीफा विश्वकप 2026 इत्यभियानस्य आरम्भं साफल्येन समारभत्। स्वस्य ग्रुप डी इत्यस्य आरम्भे तुर्कीये इत्येनं देशं 2-0 पराजयत्। ह्यः स्कॉटलैंड देशः मैसाचुसेट्स नगरे ग्रुप सी इत्यस्य आरम्भे हैती देशस्य उपरि 0-1 कठिन संघर्षे विजयं प्राप्य ग्रुप सी मध्ये अग्रस्थानं प्राप्नोत्। तस्मिन्नेव समूहे अन्यत्र 5-वारक विजेता ब्राजील देशः न्यू जर्सी नगरे मोरक्को देशेन सह 1 समांकीय स्थानम् अवाप्नोत्। क्रिकेट क्रीडायां भारतम् अद्य वर्मिंगहम नगरस्य एजवास्टन नगरे ग्रुप ए क्रीडायां चिरप्रतिद्वन्दिना पाकिस्तानेन सह स्वस्य आईसीसी महिला T20 विश्वकप इति अभियानस्य आरम्भं करिष्यति। क्रीडा सायं 7 आरप्स्यते। महिला T20 अन्ताराष्ट्रिय क्रीडायां भारतस्य आधिपत्यम् आसीत्। उभयपक्षयोः मध्ये क्रीडितेषु 16 स्पर्धासु 13 स्पर्धाः भारतेन विजिताः सन्ति इति वार्ताः।